अस्तु, तर्हि वेदपृथक्त्वयोः अवधेः चर्चा जायमाना अस्ति, यस्याम् अस्माभिः अधीतं यत् वेदस्य च पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति. नियतावधिकत्वम् इत्युक्ते किं? यत्र भेदस्य प्रतीतिः भवति अथवा पृथक्त्वस्य प्रतीतिः भवति तत्र नियमेन अवधिः भासते, अवधिः दृश्यते प्रतीतौ. यथा घटः पटात् पृथक् इत्यस्मिन् वाक्ये पटः पञ्चमीभूतः शब्दः अवधिः, पृथक् इत्यस्य वदनेन कार्यं न सिद्ध्यति, अवधिः अत्र प्रतीतौ स्थापनीयः एव इति कृत्वा पृथक्त्वस्य नियतावधिकत्वम् अस्ति. घटः पटात् पृथक् भेदस्थले अपि तथा, घटः पटात् भिन्नः इत्यस्मिन् वाक्ये पुनः अवधिः पटः, पटभेदः घटे अस्ति, घटः भिन्नः कस्मात् इति प्रश्नः उदेति. अतः नियतावधिकत्वम् इति तयोः मध्ये साम्यम् अस्ति. साम्यं कुत्र अस्ति इति चेत् उभयोः नियतावधिकत्वम् अस्ति इति. अधुना एतादृशमेव परिशीलनं निखिलावधिकत्वस्थले अथवा अनेकावधिकत्वस्थले एकावधिकत्वस्थले अपि किञ्चित् कुर्मः. उभयोः पृथक्त्वभेदयोः नियतावधिकत्वमस्ति इति तु ज्ञातम्. तद्विहाय निखिलावधिकत्वस्य विषये किं वक्तुं शक्नुमः? पृथक्त्वभेदयोः निखिलावधिकत्वम् अस्ति न वा इति. माला भगिनी किञ्चित् वदति वा?
पृथक्त्वस्थले अपि निखिलावधिकत्वं नास्ति, अपि च भेदस्थले अपि निखिलावधिकत्वं नास्ति. पृथक्त्वस्थले तत् द्रव्य यस्य द्रव्यस्य अवयवाः सन्ति तेषां तयोः मध्ये पृथक्त्वं न भवितुम् अर्हति. अतः निखिलावधिकत्वं पृथक्त्वस्थले नास्ति. अनन्तरम्
अस्तु अस्तु, एवं करोतु, प्रथमतया निखिलावधिकत्वम् इत्युक्ते किम् इति वदतु किञ्चित्.
निखिलावधिकत्वम् इत्युक्ते स्वं विहाय अन्यत्र सर्वत्र अवधिः भवेत्, तादृशः स्थितिः निखिलावधिकम् इति वदामः. अतः पृथक्त्वस्थले घटं स्वीकुर्मः, तत्र घटस्य अवयवाः कपालः घटकपालयोर्मध्ये पृथक्त्वं न भवितुम् अर्हति, यतोहि एकस्मिन् देशे एव स्तः. अतः घटं स्वं विहाय निखिलावधिकत्वं न भवितुम् अर्हति.
समीचीनम्. इत्युक्ते घटः एकः पदार्थः, कपालः अपि पदार्थः, यद्यपि अवयवः भिन्नदेशे नास्ति इति सर्वं सत्यं, तथापि उभौ भिन्नौ पदार्थौ घटकपालौ, तयोः मध्ये पृथक्त्वम् इति किमपि नास्ति खलु. अवयव अवयविनोः मध्ये पृथक्त्वं नास्ति इति कृत्वा घटस्य अवधिः कपालः न भवितुम् अर्हति. क्षम्यतां, घटस्य पृथक्त्वस्य अवधिः कपालः नास्ति यथा भगिन्या उक्तम् इति कृत्वा निखिलावधिकत्वं नास्ति पृथक्त्वस्य. अस्तु, इति वार्ता. अधुना वेदस्थले अस्तु, तर्हि भगिनी इदमपि वदतु यत् निखिलावधिकत्वं नास्ति चेत् तर्हि कीदृशः अस्ति, कीदृशमस्ति अवधिकत्वं?
पृथक्त्वस्थले अवधिकत्वम् अनेकावधिकत्वम् अस्ति. घटः पटात् पृथक्, घटः मटात् पृथक्, वृक्षात् पृथक् इति सम्भवति. तत्र अवधयः बहवः भवितुम् अर्हन्ति. अतः तत्र पृथक्त्वस्थले अनेकावधिकत्वं वर्तते इति वक्तुं शक्नुमः.
बहु समीचीनं भगिनि. अस्तु, तर्हि घटे एकमेव अस्ति पृथक्त्वं. घटस्य गुणः पृथक्त्वम् इति एकमेव, किन्तु तस्य बहवः अवधयः यथा भगिन्या उक्तं. किन्तु तस्य पृथक्त्वस्य अवधित्वं घटस्य अवयवे नास्ति, घटस्य कपाले अथवा कपालिकायां नास्ति इति कृत्वा निखिलावधिकत्वं नास्ति, परन्तु अनेकावधिकत्वम् अस्ति. अपि च नियतावधिकत्वं तु अस्ति एव इति. अस्तु, अग्रे हा, भेदस्य का स्थितिः इति सन्ध्या भगिनी वदति वा?
तत्र भेदस्य किञ्चित् पृथक्त्वस्य अपेक्षया किञ्चित् विपरीतम् अस्ति. इत्युक्ते यद्यपि भेदः अपि नियतावधिकः अस्ति, तथापि निखिलावधिकत्वं नास्ति. यतोहि तत्र भेदः यः तत्र भिद्यते, तत्र यस्मिन् भेदः अस्ति आश्रयभूतद्रव्येण न भिद्यते, परन्तु अवधिभेदेन तत्र भेदः भिद्यते, अवच्छेद्यते इति.
इदानीं प्रथमतया भेदस्थले अवधिः कः इति सूचयतु.
तत्र यदि वदामः घट घटभेदः पटे इति वदामः चेत् तत्र अवधिः पटः अस्ति. यतोहि अवधिः इत्युक्ते
चिन्तयतु भगिनि, घटस्य भेदः नाम घटस्य अन्योन्याभावः पटे अस्ति खलु.
तर्हि आम्, तर्हि तत्र पटः तत्र घटे घटस्य आनयनेन तत्र घटः प्रतियोगी अस्ति, अतः घटः तत्र अवधिः अस्ति.
हा, समीचीनं समीचीनं. तथा एव सर्वत्र पटभेदः इति वदति चेत् पटः एव अवधिः, भेदस्थले प्रतियोगी यः कोऽपि भवति सः एव अवधिः. अस्तु, इदानीं प्रतियोगी एव अवधिः इति मनसि निधाय निखिलावधिकत्वं वा अनेकावधिकत्वं वा अस्ति वा इति परिशीलनं करोतु.
हा, तर्हि यथा पूर्वमपि उक्तं, तत्र घटः घटभेदः पटे इत्युक्ते तत्र घटे घटे प्रतियोगिता अस्ति, घटः अवधिः. तथैव घटभेदः पुस्तके पुनः घटः एव प्रतियोगी. तर्हि तत्र अवधिः एकः एव अस्ति, अतः भेदस्य तत्र एकावधिकत्वम् अस्ति, न तु अनेकावधिकत्वम्. अपि च एकावधिकत्वम् अस्ति इति कृत्वा निखिलावधिकत्वं नास्ति.
हा, बहु समीचीनं. निखिलावधिकत्वं किमर्थं नास्ति इति चेत् भेदस्य एकः एव प्रतियोगी. जगति सर्वत्र घटभेदः भवेत् तत्र कस्यापि विरोधः नास्ति तस्य अङ्गीकारेण. स्वं विहाय सर्वत्र भवति घटभेदः, किन्तु घटः इति एकः एव प्रतियोगी. स्वं विहाय सर्वत्र इति यद्यपि प्रयोगः भवति, तथापि अवधिः इति एकः एव सः घटः, अतः एकावधिकत्वम् इति. अस्तु, समीचीनं. मध्ये केन केन आगतम् इदानीम्?
वर्धिनी अस्मि भगिनि.
अस्तु, अनन्तरं
लक्ष्मी अस्मि भगिनि.
लक्ष्मी भगिनि, तदनन्तरम् अन्य कोऽपि अस्ति वा यस्य नाम मम पार्श्वे नास्ति? राजेन्द्रमहोदय, तस्य अनन्तरं वर्धिनी भगिनी, लक्ष्मी भगिनी इति एव खलु? अस्तु, अग्रे सरेम. तर्हि भेदपृथक्त्वयोः नियतावधिकत्वम् अस्ति, पृथक्त्वस्य अनेकावधिकत्वम् अपि च भेदस्य एकावधिकत्वम् इति जानीमः. तर्हि अधुना कस्य निखिलावधिकत्वम् अस्ति इत्यस्य विषये अपि काचित् चर्चा जाता. तस्य विषये सव्यसाची महोदया किमपि वक्तुमिच्छति वा?
कस्य निखिलावधिकत्वम् अस्ति इत्युक्ते वयं दृष्टवन्तः पृथक्त्वे निखिलावधिकत्वं नास्ति, भेदस्थले अपि निखिलावधिकत्वं नास्ति. तर्हि प्रश्नमुदेति परमाणु यः भवति तत्र निखिलावधिकत्वं भवितुम् अर्हति वा इति प्रश्नः आसीत्. तर्हि परमाणु इति का गतिः इत्युक्ते परमाणु केवलं एकाकी न तिष्ठति इत्युक्ते परमाणु यदा भवति तत्र परमाणु द्वाणुकम् इति भवितुम् अर्हति. तर्हि परमाणु द्वाणुकम् इत्युक्ते तर्हि तत्र पृथक्त्वं विषयं नयामः चेत् यथा अस्माकं घटे पृथक्त्वम् अस्ति तर्हि इत्युक्ते अवधिः बहवः भवितुम् अर्हन्ति, परन्तु इत्युक्ते घटः स्वयम् एवं स्वस्य अवयवाः इति पृथक् नास्ति. तदाधारेण अत्र अपि परमाणुः अस्ति चेत् परमाणुद्वयाणुकं भवति चेत् तत्र पृथक्त्वं तु परमाणुद्वयकं विहाय सर्वत्र अस्ति, परन्तु परमाणु अवयवः. तर्हि तत्रापि परमाणुस्थले अपि निखिलावधिकत्वं नास्ति.
यतोहि समीचीनं, यदा कदापि परमाणुः भवति तदा सः द्वयणुकस्य भागः एव भवति. तत्र स्वातन्त्र्येण परमाणोः उपस्थितिः न कदापि भवति. अस्तु इति
भगिनी राजेन्द्र वदामि इदानीं किञ्चित् निखिलावधिकं विषये किमपि वदति वा? मया न अवगतम् इदानीं यदा अहं कक्षां न आगतवान्.
अस्तु तर्हि अवधिः इति कः इति जानाति? तत् पर्यन्तं भवान् आसीत् वर्गे इति मन्ये. अवधिः कः इति जानाति? घटः पटात् पृथक्, तत्र अवधिः कः?
पटस्य अवधिः,
पटः अवधिः. घटः पटात् भिन्नः, तत्र अवधिः कः?
पटे अस्ति अवधिः.
न चिन्तयतु, घटः पटात् भिन्नः. क्षम्यतां महोदय, भवान् सम्यक् एव उक्तवान्, पटः एव. यतोहि पटः प्रतियोगी तत्र पटभेदस्य. अस्तु, इति वार्ता तु स्पष्टा आसीत्. निखिलावधिकत्वम् इत्युक्ते न्यायशास्त्रे निखिलशब्दस्य विशेषः अर्थः अस्ति. अस्तु, स्वं विहाय जगति अन्यत् सर्वम् इति अर्थः. तर्हि अधुना तम् अर्थं मनसि निधाय द्रष्टव्यं भवति. घटस्य पृथक्त्वस्य अवधिकत्वं जगति घटं विहाय सर्वत्र अस्ति वा इति. तत्र किं चिन्तनं राजेन्द्रमहोदय?
पुनः वदतु भगिनी किञ्चित्.
निखिलशब्दः इत्युक्ते स्वं विहाय जगति सर्वत्र इति न्यायशास्त्रे. अस्तु, तर्हि घटस्य पृथक्त्वम् इति यदस्ति, घटः पटात् पृथक् इत्यस्य वदनेन पटात् इति दृष्ट्वा पटः अवधिः, पटे अवधिकत्वम् अस्ति इति सर्वम् अवधित्वम् अस्ति इति जानीमः खलु. तर्हि अधुना मम प्रश्नः अस्ति, घटः पटात् पृथक् तत्तु सत्यं, घटः अपरस्मात् वस्तोः अपि पृथक् अस्ति वा? घटः मठात् पृथक्, घटः वृक्षात् पृथक् इति प्रतीतिः अर्हति खलु? अस्ति. तर्हि घटपृथक्त्वस्य अवधिः बहवः पदार्थाः भवितुमर्हन्ति खलु? महोदय, बहवः भवन्ति. तर्हि घटपृथक्त्वस्य बहवः अवधयः. तर्हि इदानीं प्रश्नः अस्ति यत् घटस्य कपालः घटात् पृथक् भवितुमर्हति वा इति.
न भवितुम् अर्हति. कपालः तु अवयवः अस्ति.
हा, कपालः अवयवः अस्ति खलु. तर्हि कपालघटयोः आकाशदेशः भिन्नः नास्ति इति कृत्वा तयोः मध्ये पृथक्त्वम् इति वार्ता एव नास्ति किल. तर्हि घटपृथक्त्वस्य अवधिः कपालः भवितुमर्हति वा?
न भवितुमर्हति,
यतोहि घटः कपालात् पृथक् इति प्रतीतिः न जायते एव खलु. तर्हि कपालः इति एकः पदार्थः अस्ति यस्मिन् घटस्य अवधित्वं नास्ति, घटपृथक्त्वस्य अवधित्वं नास्ति इति साधितं. तत्तु स्पष्टम्?
आम् आम् भगिनि.
हा, तर्हि घटस् जगति एकः तु पदार्थः अस्ति यस्मिन् घटपृथक्त्वं प्रति अवधित्वं नास्ति इति साधितं खलु. तर्हि इदानीं वदतु, घटपृथक्त्वस्य निखिलावधिकत्वम् अस्ति वा इति. निखिलम् इत्युक्ते त्वं विहाय सर्वं,
त्वं विहाय जगति सर्वत्र अस्ति.
हा, तर्हि घटं विहाय जगति सर्वत्र तस्य पृथक्त्वस्य अवधित्वं नास्ति इति तु ज्ञातं, यतोहि कपाले नास्ति. अस्तु, इति कृत्वा घटस्य पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति सिद्धम् इति अवगतं वा?
आम् आं भगिनि.
अस्तु, अतः पृथक्त्वस्य निखिलावधिकत्वं नास्ति. तथैव भेदः, भेदः इति यत्र भेदस्य प्रतीतिः भवति, तर्हि भेदस्थले अवधिः कः इत्युक्ते भेदस्य प्रतियोगी. प्रतियोगीविषये स्मर्यते वा?
आम् आं भगिनि.
हा, प्रतियोगी इति किं?
यदा वदामः घटः पटात् भिन्नः भिन्नः, तत् प्रतियोगी तु पटः एव अस्ति.
हा, पटात् भिन्नः इत्युक्ते प्रतियोगी येन अभावः निवार्यते सः प्रतियोगी. प्रतियोगी एव अवधिः भेदस्य इति कृत्वा तत्र भेदस्थले अवधिः एकस्मिन् एव पदार्थे अस्ति, जगति सर्वत्र इति वार्ता नास्ति इति कृत्वा भेदस्य अपि निखिलावधिकत्वं नास्ति इति उच्यते. आहत्य पृथक्त्वस्य भेदस्य निखिलावधिकत्वं नास्ति, किन्तु नियतावधिकत्वम् अस्ति. नाम यत्र वाक्यं वदामः घटः पटात् पृथक् अथवा घटः पटात् भिन्नः, तत्र कञ्चन कश्चन पञ्चमीयुक्तशब्दः श्रूयते एव इति नियतावधिकत्वम् इति उच्यते. बुद्धं
वा?
अस्तु, आम्. तर्हि इतः अग्रे किञ्चित् सरेम. अद्यतनमूलविषयः अस्ति भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति अस्माकं मूलविषयः आसीत्. तस्य अध्ययनार्थम् एव अवधिः कः इति सर्वं ज्ञातव्यम् अभवत्. तर्हि लक्ष्मी भगिनी, तत्र एकं वाक्यमासीत् खलु लक्ष्मीभगिनी? अस्तु अस्तु, तर्हि एकं वाक्यमासीत् विद्याधरीतः स्वीकृतं वाक्यं, न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे इति वाक्यम् एकवारं पठित्वा वाक्यस्य आकृतिः कीदृशी इति वदतु.
न च गुणरूपस्य तस्य रूपादिवत् मूर्तौ उत्पत्ति द्वितीयक्षणे जायमानस्य नियता अवधिकत्वे मान अभावात् भूतल अवधिकत्वस्यैव कपाल अवधिकत्वस्यापि आवश्यकत्वात् तद् दोषता अवश्यम् इति वाच्यम्. अत्र न च न्यायशास्त्रे यदि वाक्यं न च इति आरम्भं करोति चेत् अनन्तरं वाक्यम् इति तस्य अन्तः अस्ति चेत् मध्ये ये अस्ति यः अस्ति यं वाक्यम् अस्ति तद् तत् पूर्वपक्षिणः वाक्यमस्ति, पूर्वपक्षिणः वाक्यमस्ति न च वाच्यम् इति सिद्धान्तिनः वदन्ति अत्र.
एकनिमिषः, न्यायशास्त्रे सर्वत्र तथा इति नास्ति. सिद्धान्तिः कः, पूर्वपक्षी, तस्य विषये अग्रे किञ्चित् वक्तव्यं भवति, वदामि च. किन्तु न, सिद्धान्तिः कः, पूर्वपक्षी कः इति सन्दर्भम् अनुसृत्य निर्णयः करणीयः. परन्तु अस्मिन् सन्दर्भे न च इत्यस्य अन्वयः केन सह अस्ति? अन्वयः, भगिनि, अन्वयः इत्युक्ते न च वाच्यम् इति वस्तुतः तेषां मतं खलु?
न च वाच्यम् इति एकः पक्षिणः मतं खलु?
समीचीनम्.
अन्यमतम् अस्ति यत् मध्ये अस्ति.
भगिनी, एकः प्रश्नः अस्ति, न च वाच्यम् इत्युक्ते न वक्तव्यं वा?
सत्यम्.
अस्तु, अपि च
यथा तव्यतनियर् तथा एव यत् यत् प्रत्यय न्यत् न्यत् इति वाच्यम् इति आगच्छति.
अतः मम अवगमनम् अस्ति न च इति वाक्ये भवति चेत्, अपि च आरम्भे न च अपि च वाक्यस्य अन्ते वाच्यम् अस्ति चेत् मध्ये यत्किमपि अस्ति तत्र किमपि दोषः अस्ति इति अस्ति वा?
सत्यम्.
अस्तु,
तथैव अस्ति. न च इत्यस्मात् परं कोट्स् इति आरम्भं करोति चेत् गुणरूपस्य इत्यस्मात् आरभ्य आवश्यकत्वात् इति डबल् कोट्स् मध्ये भवति, तद् न वाच्यम् इति. अस्तु, लक्ष्मी भगिनी, अधुना न च इत्यस्य अन्वयः वाच्यम् इत्यनेन सह एकपक्षिणः मतं, मध्ये यत्किमपि अस्ति तस्य विषये किमपि वदति वा, तत्र किं किम् अस्ति इति? किम् अस्ति इति न, यावत् जानाति तावद् वदतु.
अस्तु, अत्र गुणरूपस्य तस्य रूपादिवत् मूर्तो उत्पत्ति द्वितीयक्षणे जायमानस्य इति तद् वाक्यं स्वीकुर्मः चेत् वाक्यं मम अवगमनमस्ति मूर्त उत्पत्ति द्वितीयक्षणे मूर्त उत्पत्तिसमये एव
वाक्यस्य एकनिमिष वाक्यस्य अर्थः मास्तु अधुना. केवलम् इदं वदतु यत् न च वाच्यम् इति वस्तुतः पूर्णतया यद् वाक्यम् अस्ति तद् वाक्यं तु सिद्धान्तिनः वाक्यं, किन्तु तस्मिन् वाक्ये न च वाच्येन सह अन्वयः अस्ति, तत्तु समीचीनं. मध्ये यदस्ति तत्र आपादनद्वयमस्ति, आपादनद्वयमस्ति, आपादनम् इत्युक्ते क्लेम्. हा, तद् द्वयं किं किम् इति वदतु.
अस्तु, अत्र गुणरूपस्य तस्य रूपादिवत् मूर्तो उत्पत्ति द्वितीयक्षणे जायमानस्य नियता अवधिकत्वे मानाभावात् एकः आपादनम् अस्ति. अनन्तरम् अस्ति भूतल अवधिकत्वस्य एव कपाल अवधिकत्वस्य अपि अवधिकत्वस्यापि आवश्यकत्वात् तद् दोषम् अवश्यम् इति आपादनद्वयम् अस्ति अत्र.
न, द्वितीयम् आपादनम् आवश्यकत्वात् इति पर्यन्तं तावदेव.
ओ, अस्तु.
प्रथम आपादनं तु भवत्या उक्तं गुणरूपस्य तस्य इत्यस्मात् आरभ्य मानाभावात् इति प्रथम आपादनम् अथवा क्लेम् अस्ति. कस्य क्लेम् अस्ति
अस्मिन् सन्दर्भे? पूर्वपक्षनवीननयायिकाः.
हा, समीचीनं. भूतलावादिकस्यैव कपालावादिकत्वस्यापि आवश्यकत्वात् इति द्वितीयम् आपादनम् इति आपादनद्वयम् अस्ति. आपादनद्वयस्य वदनेन तद्दोषतादवस्थ्यम् आगच्छति, नाम तत् सः एव दोषः पुनः आयाति, अतः न वाच्यम् इति सिद्धान्तिनः वदति.
अस्तु
इति अतः न वाच्यं तत्र मानाभावात् आवश्यकत्वात् इति सर्वं कारणपञ्चमी अस्ति पञ्चमी विभक्ति यथा
सः एव दोषः इत्युक्ते कीदृशः दोषः
तदपि अग्रे आगच्छति परन्तु अत्र किं ममापि भ्रमः आसीत् वर्गे अपि तथा उक्तवती अहं तु आपादनद्वयमेव दोषः इति चिन्तितवती किन्तु तथा नास्ति अग्रे तस्य चर्चा भवति इति उक्तं किन्तु सिद्धान्तिनः वदति यत् पूर्वपक्षिणाम् आपादनद्वयस्य पुनः कथनात् सः एव दोषः पुनः आयाति इति अतः तद् न वाच्यम् इति स्पष्टं वा
भगिनि
भगिनि तत्र तत्र न च वाच्यमस्ति इत्युक्ते नवीनन्यायिकानां वदन्ति ये अस्ति गुणरूपस्य आरम्भात् एवं तद्दोष तावस्थ्यम् इति पर्यन्तं यत् अस्ति तत् पूर्वपक्षिणः वदन्ति खलु
न गुणरूपस्य यस्मात् आरभ्य आवश्यकत्वात् इति पर्यन्तं पूर्वपक्षिणः मतम्
अस्तु अस्तु तर्हि
तदुक्त्वा तस्य उत्तररूपेण एतस्य द्वयस्य कथनेन पुनः सः एव दोषः आगच्छति तद्दोषतादवस्थ्यम् इति सिद्धान्तिनः एव मतं वाच्यम् अपि सिद्धान्तिनः न च अपि वस्तुतः वाक्यमपि तेषामेव किन्तु अस्मिन् वाक्ये कोट्स् मध्ये यत् स्थापयन्ति गुणरूपस्य इत्यस्मात् आरभ्य आवश्यकत्वात् इति कोट्स् मध्ये स्थापयति चेत् तत् सर्वं पूर्वपक्षिणः आपादनमस्ति
अस्तु अस्तु समीचीनम्
अस्तु तर्हि
पूर्वपक्षिणः एवं प्राचीननायिकाः भेदः कः अस्ति
तदेव वदन्ति आसम् उद्युक्ता अभवं वक्तुम् अन्य कोऽपि प्रश्नः
एकनिमिषस्मात् तादवस्थ्यम् इत्यस्य रूपं किं भगिनि
तदवस्था इति
समीचीनं
सत्यं सः एव अवस्था
किमर्थं तदवस्थ्यं प्रायः भवेत् खलु
किं भगिनि
किमर्थं तादवस्थ्यम् इति पृच्छामि
दोषता
न तद्दोष तद्दोष तद्दोषस्य पृथक् पृथक् कुर्मः तद्दोष इति एकं पदं तादवस्थ्यम् इति एकं पदम् इति पुनः एकस्मिन् पदे त्रीणि पदानि अन्तर्भूतानि पुनः तद्दोषः इति अपि समासः सः एव दोषः तद्दोषः इति तादवस्थ्यम् इत्युक्ते तदवस्था इत्यस्य भावः तदवस्थः इति भावः सः एव सा एव अवस्था यस्य तदवस्थः तस्य भावः यथा सुन्दरः सौन्दर्यम्
अस्तु अस्तु अवगतं भगिनि धन्यवादः
इति तादवस्थ्यम् तर्हि आपादनद्वयस्य स्वीकारेण कथनेन पुनः सः एव दोषः आयाति इति कथनम् अपि च इदानीं शनिवासरस्य वर्गे मम मनसि अपि भ्रमः आसीत् पूर्वपक्षी कः सिद्धान्तिः कः इति तर्हि अन्येषां किं किम् उत्तरम् अस्ति अत्र
अत्र सिद्धान्तिनः इत्युक्ते ये वदन्ति भेदः एव पृथक्त्वम् इति आक्षेपस्य ये निरासं कुर्वन्ति ते सिद्धान्तिनः ये भेदः एव पृथक्त्वम् इति वदन्ति ते पूर्वपक्षिणः
अस्तु तर्हि अन्ये किं चिन्तयन्ति?
न न, पूर्वपक्षिणः वदन्ति भेदः भिन्नः, पृथक्त्वं भिन्नः. नवीनन्यायिकानां वदन्ति भेदः एव पृथक्त्वं.
तर्हि तत्र सिद्धान्तिनः के?
नवीननायकानां सिद्धान्तिनः.
अस्तु, तर्हि तथा सर्वैः चिन्तितमासीत् गते वर्गे यावत् अहं स्मरामि. वयं सर्वे अङ्गीकृतवन्तः यत् नवीनाः सिद्धान्तिनः प्राचीनाः पूर्वपक्षिणः इति. तर्हि वस्तुतः तथा नास्ति. मयापि स्पष्टीकरणं प्राप्तं महोदयेन सह वार्तालापं कृत्वा. सिद्धान्तिनः इत्युक्ते यस्य सिद्धान्तः अधुना प्रस्तूयते सः सिद्धान्ति इति, तावदेव न्यायशास्त्रे. नवीनाः सिद्धान्तिनः, पूर्वपक्षिणः प्राचीनाः इति नास्ति. पूर्वपक्षी इत्युक्ते सिद्धान्तिनः विरुद्धं यः कोऽपि इतोपि एकं मतं प्रस्तौति सः इति पूर्वपक्षी. बुद्धं वा?
पुनः कृपया वदतु भगिनि.
सिद्धान्ति इत्युक्ते यस्य कस्यापि सिद्धान्तः अधुना प्रतिपादितमस्ति सः सिद्धान्ति. इत्युक्ते विद्याधरीग्रन्थे भिन्नभिन्नसन्दर्भेषु भिन्नभिन्नाः सिद्धान्तिनः भवितुम् अर्हन्ति इति. यथा विद्याधरीपुस्तके भवान् यद् उक्तवान् सव्यसाची महोदय, तदपि सत्यं, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इत्यस्मिन् भागे प्रथमपरिच्छेदः द्वितीयपरिच्छेदः आसीत् खलु. तत्र भवता यदुक्तं समीचीनमेव, नवीनाः सिद्धान्तपक्षिणः इति. यतोहि तेषां सिद्धान्तः तदा प्रचलन् आसीत्. तेषां सिद्धान्तः कः? भेदः एव पृथक्त्वम् इति तेषां सिद्धान्तः खलु. तदा सिद्धान्तिनः इत्युक्ते नवीनाः, तत्र तु अङ्गीकारः अस्ति. तेषां मतस्य विरोधः किं कुर्वन्तः आसन्? प्राचीनाः किल, भेदः एव पृथक्त्वम् इति मास्तु इति तेषां मतस्य, सिद्धान्तिनः अथवा नवीनानां मतस्य विरोधं कृतवन्तः प्राचीनाः. तर्हि तदा प्राचीनाः पूर्वपक्षिणः इति उच्यते तस्मिन् प्रसङ्गे. तस्मिन् सन्दर्भे यत्र तस्य विवादः प्रचलन् आसीत् तत्र भेदः एव पृथक्त्वम् इति सत्यं वा न वा इति. किन्तु अधुना तस्मात् अग्रे गत्वा अधुना कः सिद्धान्तः प्रचलति इत्युक्ते गुणान्तरं पृथक्त्वम् इति. एकं वाक्यमासीत् विद्याधरीपुस्तके खलु, अष्टनवतितमे पृथक्त्वे. तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम् इति. तद् सः सिद्धान्तः अधुना. गुणान्तरं पृथक्त्वम् इति केन साधितं? नवीनैः अथवा प्राचीनैः?
प्राचीनैः.
प्राचीनैः गुणान्तरं पृथक्त्वं, पृथक्त्वम् इति गुणः इति प्राचीनैः साधितः सिद्धान्तः. तर्हि अस्मिन् सन्दर्भे पृथक्त्वस्य गुणत्वस्य विषये चर्चा इति यः सन्दर्भः अस्ति, तस्मिन् सन्दर्भे सिद्धान्तिनः प्राचीनाः. यः कोऽपि तस्य विरोधम् इतोपि एकं विरुद्धमतं स्थापयन्ति ते पूर्वपक्षिणः इति उच्यते.
अस्तु,
तर्हि अस्मिन् सन्दर्भे भेदः एव पृथक्त्वम् इति आक्षेपस्य ये निरासं कुर्वन्ति ते सिद्धान्तिनः. तत् सम्यक् किल?
सत्यं, तदपि भगिनी भवती यदा उक्तवती तत् समीचीनम्.
हा, तर्हि अत्र अस्मिन् सन्दर्भे ये निरासं कुर्वन्ति ते सिद्धान्तिनः इत्युक्ते प्राचीनाः, ये वदन्ति भेदः एव पृथक्त्वम् इति, ते पूर्वपक्षिणः, ते नवीनाः.
हा, पूर्वपक्षिणः के इति न उक्तं, केवलं सिद्धान्तः अस्ति गुणान्तरं पृथक्त्वम् पुस्तके अपि स्थूलाक्षरैः अस्ति यद् गुणान्तरं पृथक्त्वं बोल्ड् मध्ये बोल्ड् लेटर्स् मध्ये अस्ति खलु सः सिद्धान्तः साधितः प्राचीनैः तर्हि साधितः अपि च सः ते उपस्थापयन्ति अपि सिद्धान्तं तर्हि ते सिद्धान्तिनः प्राचीनाः अस्तु अधुना सन्दर्भः अस्ति यत् सन्दर्भः भेदः एव पृथक्त्वं तस्य निरासः इति सन्दर्भः नास्ति तस्मिन् सन्दर्भे सिद्धान्ती इति नवीनाः प्राचीनाः पूर्वपक्षी अत्र तु गुणान्तरं पृथक्त्वम् इति सिद्धान्तः प्राचीनानां तर्हि ते सिद्धान्तिनः परन्तु पूर्वपक्षी कः इति न उक्तम् अन्यः कोऽपि यः कोऽपि भवतु नाम अस्य मतस्य विरुद्धमतमस्ति यः कोऽपि सः पूर्वपक्षी इति स्पष्टं जातं वा वार्ता अस्तु इति स्पष्टं चेत् इतः अग्रे किञ्चित् पठेम तर्हि जयन्ती भगिनी पठति
आं भगिनि प्रथमं न सम्प्रति सम्प्रति पूर्वपक्षिणः मतं किम् इति पश्येम प्रथमे आपादने मूतोत्पत्तिद्वितीयक्षणे जायमानः इति उक्तं गुणानां सृष्टिविधिः तथा पूर्वमपि अस्माभिः दृष्टं यदा मूर्तद्रव्यम् उत्पद्यते युगपत् तस्मिन् द्रव्ये गुणोऽपि उत्पद्यते इति नास्ति प्रथमतया मूर्तद्रव्यं तदा तस्य उत्पत्तेः द्वितीयक्षणे गुणः समुद्भवति नीलः पटः पटे नीलरूपं प्रथमतया पटः जायते तदा एव नीलरूपं किमर्थम् इति चेत् नीलरूपं समवायसम्बन्धेन पटे तस्मात् पटः नीलरूपस्य समवायीकारणं नीलरूपं च कार्यं कार्यकारणभावस्य साधनार्थं कारणं कार्याधिकरणे भवेत् कार्योत्पत्तेः पूर्वक्षणे च भवेत् कार्योत्पत्तेः पूर्वक्षणे कारणं न विद्यते चेत् तस्य कार्यस्य कारणं न भवितुम् अर्हति एव इति कृत्वा उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं तदा मूर्तोत्पत्तिद्वितीयक्षणे तस्मिन् गुणः जायते तर्हि गुणस्य स्वभावः तथा द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः अत्र आपादन
वाक्यशः पठित्वा वदतु येन नूतनाः सन्ति खलु तेषां मनसि अपि
अवश्यं सम्प्रति पूर्वपक्षिणः मतं किम् इति पश्येम प्रथमे आपादने मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति उक्तम् वाक्यस्य यत् वाक्यम् अस्माभिः दृष्टमासीत् इदानीं तस्य वाक्यस्य पदच्छेदं कृत्वा प्रतिपाद्यते अत्र रूपस्य तस्य रूपादिवत् इति आरभ्य मूर्तोत्पत्तेः द्वितीयक्षणे जायमानः इत्यस्य भागस्य प्रतिपादनम् अस्ति अत्र एतत्तु पूर्वपक्षिणः मतं यत् वयं पश्यन्तः आसम् मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इति अस्ति यत् वयं पूर्वमेव दृष्टवन्तः यत्र कुत्रापि द्रव्यस्य सृष्टिः भवति मूर्तद्रव्यस्य उत्पत्तिः भवति प्रथमतया द्रव्यस्य उत्पत्तिः भवति प्रथमक्षणे अस्तु अहं पठामि गुणानां सृष्टिविधिः तथा पूर्वमपि अस्माभिः दृष्टं यदा मूर्तद्रव्यम् उत्पद्यते युगपत् तस्मिन् द्रव्ये गुणोऽपि उत्पद्यते इति नास्ति प्रथमतया मूर्तद्रव्यं तदा तस्य उत्पत्तेः द्वितीयक्षणे गुणः समुद्भवति पूर्वस्मिन् समये वयं दृष्टवन्तः प्रथमं घटस्य उत्पादनं भवति, तद् अनन्तरमेव घटस्य रूपम् उद्भवति. प्रथमक्षणे तु द्रव्यस्य सृष्टिः भवति, द्वितीयक्षणे एव ये ये गुणाः सन्ति द्रव्यस्य तेषाम् उत्पादनं तेषां सृष्टिः भवति. तदेव अत्रापि उक्तमस्ति. प्रथमतया नीलपटः इति उदाहरणं स्वीकृत्य प्रतिपाद्यते. नीलः पटः इति, नीलः पटः पटे नीलरूपं, प्रथमतया पटः जायते तदा एव नीलरूपम्. अत्र नीलपटः इत्यस्मिन् वाक्ये द्रव्यं तु पटः अस्ति, प्रथमतया पटः उत्पद्यते. पटस्य उत्पादनस्य अनन्तरमेव द्वितीयक्षणे एव गुणरूपेण नीलत्वम् उद्भवति इति अस्ति. किमर्थम् इति चेत् तदेव गुणस्य स्वभावः तादृशम् अस्ति, तादृशः अस्ति. किमर्थम् इति चेत् नीलरूपं समवायसम्बन्धेन पटे, तस्मात् पटः नीलरूपस्य समवायिकारणम्. पूर्वमपि उदाहरणैः वयं दृष्टवन्तः द्रव्यं तु स्वस्मिन् तादात्म्येन स्थित्वा कार्यं जनयति इति. प्रथमतया कारणरूपेण द्रव्यम् अस्ति, स्वस्मिन् तादात्म्येन स्थित्वा द्रव्यं नाम पटः नीलरूपं जनयति. नीलरूपम् इति कार्यं जनयति. अतः प्रथमं तु कारणं भवेत्, तदनन्तरमेव तस्य किमपि कार्यं जन उद्भवति. अतः अत्र द्रव्यं तु समवायिकारणं भवति, नीलरूपस्य समवायिकारणं, नीलरूपं च कार्यं. कार्यकारणभावस्य साधनार्थं कारणं कार्याधिकरणे भवेत्, कार्योत्पत्तेः पूर्वक्षणे च भवेत्. पूर्वमपि पुरा एव वयं दृष्टवन्तः केचन निकषाः सन्ति कारणम् इति वदनार्थं. कारणस्य केचन निकषाः सन्ति, ते के? प्रथमं तु कार्याधिकरणे भवेत् एतत् कारणं. कारणम् इति यत् वयं निर्दिशामः तत्तु कार्याधिकरणे भवेत्. अत्र कार्याधिकरणं किं? पटः एव कार्याधिकरणं. कार्यं तु नीलरूपं, नीलरूपस्य अधिकरणम् अस्ति, गुणस्य अधिकरणम् अस्ति द्रव्यं नाम पटः.
कारणं कार्याधिकरणे स्यात्, अत्र कार्याधिकरणं किं भवती उक्तवती एव.
पटः एव कार्याधिकरणं.
तर्हि कारणं किम्?
कारणं तु पटः,
पटः एव. तर्हि कार्याधिकरणे कारणम् अस्ति वा?
आम्
आम् अस्ति खलु, पटः
एव अस्ति. अत्र कारणस्य उल्लेखः एव भवति, कारणं तु पटः अस्ति इति.
हा, पटः स्वस्मिन् तादात्म्येन तिष्ठति,
तिष्ठति. अनन्तरं
कारणं, कारणं स्वस्मिन् तादात्म्येन अस्ति कार्याधिकरणे.
कार्योत्पत्तेः पूर्वक्षणे च भवेत्. द्वितीय सर्वदा कार्याधिकरणे भवेत् इति अपि निकषः अस्ति. तृतीयनिकषः अस्ति कार्योत्पत्तेः पूर्वक्षणे भवेत् इत्युक्ते यत् कार्यं जनयति कार्यस्य उत्पादनस्य पूर्वक्षणे एव तत् कारणं भवेत् इति. कदापि कार्यस्य उत्पादनस्य अनन्तरं न भवति कारणं तु प्रथमतया एव उद्भवति. तस्मात् एव कार्यस्य जननं भवति. तदेव अत्र दीयते. कुत्र? हा, कार्योत्पत्तेः पूर्वक्षणे च भवेत्. कार्योत्पत्तेः पूर्वक्षणे कारणं न विद्यते चेत् तस्य कार्यस्य कारणं न भवितुम् अर्हति एव इति कारणं भवितुं न अर्हति एव इति कृत्वा उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं तदा मूर्तोत्पत्ति द्वितीयक्षणे तस्मिन् गुणः जायते इत्युक्ते पुनः प्रथमं तु कारणं यत्र कारणरूपेण एव भवति तस्मिन् क्षणे तस्य कोऽपि कस्यापि तस्य कोऽपि गुणः एव नास्ति अतः तत् कारणं तु निर्गुणः अस्ति इति अस्ति तत् तस्मात्
क्षणमेकमेव निर्गुणं भवति द्रव्यं
क्षणमेकं निर्गुणं भवति तस्मात् द्वितीयक्षणे कोऽपि गुणः उत्पद्यते रूपेण वा किमपि अत्र तु नीलत्वम् इति गुणः उत्पद्यते तस्मिन्नेव कारणस्य गुणः भवति इति प्रथमं तु निर्गुणं भवति तदनन्तरं गुणत्वम् आगच्छति तर्हि गुणस्य स्वभावः तथा द्रव्ये विद्यमानः मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इति
समीचीनमस्ति तर्हि अत्र कोऽपि भ्रमः न स्यात् कस्यापि इति मन्ये भगिन्या समीचीनतया प्रतिपादितं तर्हि गुणस्य तादृशः स्वभावः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः भवति सः
भगिनी सम्प्रति इत्युक्ते किम्
अधुना इति अधुना तावदेव महोदय अधुना यः प्रचलति सः सम्प्रति सावित्री भगिनी पठितुम् इच्छति वा यतोहि भवत्या गन्तव्यम् इति उक्तवती
अस्तु भगिनि पठामि अधुना गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति पूर्वपक्षिणः प्रथमम् आपादनम् अत्र गुणरूपस्य तस्य रूपादिवत् इत्यनेन कस्य इति चेत् पूर्वतने वाक्ये संयोगः इति विषयः प्रवर्तमानः इति कृत्वा संयोगः एव स्यात् किन्तु वाक्यस्य आशयं दृष्ट्वा भिन्नरीत्या चिन्तनीयं भवति अनुच्छेदद्वयात् प्राक् उक्तम् आसीत् तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं तस्य उल्लेखः अत्र क्रियते तस्य इत्यनेन अतः गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति भवति अस्तु अत्र वाक्य मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति तु सम्पूर्णं इति तु अभवत् इदानीं गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति अस्य वाक्यस्य परीक्षा भवति इति पूर्वपक्षिणः मतमस्ति अत्र अथवा आपादनम् अस्ति अत्र गुणरूपस्य तस्य इति लिखितमस्ति तस्य इत्युक्ते तस्य इति प्रश्नः उद्भवति यतोहि पूर्वस्मिन् वाक्ये संयोगस्य चर्चा जाता परन्तु
पूर्वस्मिन् वाक्ये इत्युक्ते कस्मिन् वाक्ये स्मरयति वा
आमामां भूतलः भूतला
कपालभूतलयोः
कपाल आमां कपालभूतलयो कुत्र अस्ति
अस्तु चिन्ता नास्ति अहमेव पठामि पूर्वस्मिन् वाक्ये इत्युक्ते विद्याधर्याः पूर्वस्मिन् वाक्ये इति यत्किमपि आसीत् कपालभूतलयोः पृथगाश्रय आश्रितत्वेन तयोः संयोगसम्भवेऽपि घटकपालयोः तथा विदत्वाभात् अभावात् न तयोः कर्मजसंयोगजसंयोगोत्पत्तिः अस्मिन् वाक्ये कस्य वार्ता अस्ति, संयोगस्य वार्ता इति खलु, इत्येव अत्र उक्तं। तर्हि तस्य इति कस्य सूचकः भवति, कं निर्दिशति इति प्रश्नः।
अत्र संशयः अस्ति यत् प्रायः संयोगस्य विषये, परन्तु तथा नास्ति इति लिखितमस्ति अत्र। वाक्यस्य आशयं दृष्ट्वा भिन्नरीत्या चिन्तनीयं भवति। अनुच्छेदद्वयात् प्राक् उक्तम् आसीत् तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं। तत्र सिद्धान्ती वदति इदानीं अस्माभिः पृथक्त्वम् इति गुणः इति साधितम् अस्ति इति, तस्य उल्लेखः अत्र क्रियते। तदर्थं तस्य इति पदस्य अन्वयः भवति पृथक्त्वस्य,
पृथक्त्वेन सह।
आम्, अतः गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति भवति वाक्यस्य पूर्णरूपम्। तदेव अस्ति किल अग्रे पठामि वा?
न न, तावदेव अस्ति। अत्र सर्वेषां समीचीनं भगिनि, अत्र सर्वेषां मनसि स्पष्टता अस्ति वा प्रथम आपादनं कस्य विषये अस्ति इति? अथवा भ्रमः अस्ति चेत् उच्यतां, चर्चा कुर्मः।
मम तु भ्रमः अस्ति एव भगिनि।
अस्तु राजेन्द्रमहोदय, इदानीं पश्यतु, गुणरूपस्य तस्य, तस्य इति कस्य उल्लेखः अस्ति तत्र, तद् ज्ञातं वा? यथा भगिनी उक्तवती अधुना, गुणरूपस्य तस्य इति सर्वनामपदमस्ति खलु, सः इत्यस्य, तस्य इति षष्टि, सः, सः कः?
गुणरूपं,
हा गुणरूपम्, अत्र रूपम् इति रूपरसगन्ध इति तद्रूपं नास्ति, गुणरूपस्य, गुणरूपम् इत्युक्ते गुणस्य श्रेण्याम् अन्यतमः सः इति गुणरूपः। गुणरूपः कः कः भवति, पृथक्त्वं वा रूपं रसगन्धः इति बहवः गुणाः सन्ति खलु, गुणरूपपदार्थाः। महोदय अवगच्छति वा? गुणरूपस्य तस्य, अस्तु अत्र सर्वं विशेषणविशेषभावः अस्ति, गुणरूपस्य तस्य कस्य पृथक्त्वस्य इति स्थापयतु तत्र। पृथक्त्वम् इति गुणः, पृथक्त्वम् इति गुणरूपः पदार्थः तस्य इति, इदानीं बुद्धम्?
आम् आम् भगिनि।
हा तर्हि अस्मिन् परिच्छेदे केवलम् इदम् उक्तं यत् तस्य इत्यस्य अन्वयः विद्याधरी पुस्तके एकः वाक्यं, पूर्वस्मिन् परिच्छेदे एकमस्ति वाक्यं यस्मिन् बोल्ड् मध्ये लिखितमस्ति गुणान्तरं पृथक्त्वम् इति। तर्हि तस्य इत्यस्य अन्वयः यद् बोल्ड् मध्ये अस्ति विद्याधरी पुस्तके स्थूलाक्षरे यद् लिखितं, तस्य पदस्य अन्वयः तेन सह अस्ति, तत्र किमस्ति पृथक्त्वं, ते पृथक्त्वेन सह तस्य पदस्य अन्वयः भवति। अस्तु इति उक्त्वा अन्तिमवाक्यं यदस्ति अस्मिन् परिच्छेदे, गुणरूपस्य तस्य पृथक्त्वस्य इति, रूपादिवत् मूर्तोत्पत्तिक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति वाक्यं भवेत् इति आशयः। इति अवगतं वा किञ्चित्? इदानीं रूपादिवत् इति सर्वं त्यजतु, केवलं तस्य इति कस्य सूचकः इति चिन्तयतु, तस्य इति पृथक्त्वस्य सूचकः, तस्य इति पदेन पृथक्त्वस्य इति ग्रहणीयं भवति वाक्ये, तावदेव। गुणरूपस्य तस्य पृथक्त्वस्य, गुणरूपस्य पृथक्त्वस्य किं किम् अस्ति, मूर्तोत्पत्तिक्षणे द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावः अस्ति. एतद् किम् इति अग्रे परिशीलयामः. किन्तु अधुना केवलम् इदं जानातु यत् पृथक्त्वस्य विषये चर्चा अस्ति अधुना इति. पृथक्त्वं
यथाभावात् इत्युक्ते न मन्यते,
न मन्यते इति. हा, तत्तु अग्रे आगच्छति. किन्तु किं न मन्यते, कस्य विषये न मन्यते? पृथक्त्वस्य विषये. पृथक्त्वमपि गुणः, यथा सामान्यं मूर्तोत्पत्ति द्वितीयक्षणे जायमानः, यथा सर्वे अपि गुणाः जायन्ते तथा. तदपि तत्तु सत्यम्. अपि च पृथक्त्वं गुणरूपः, तदपि सत्यं. मूर्तोत्पत्तिक्षणे जायमानः तदपि सत्यं. किन्तु किञ्चित् असत्यमपि अस्ति अस्मिन् वाक्ये इति पूर्वपक्षिणः वदन्ति. तत्र अस्माकं मानाभावः अथवा अनङ्गीकारः अस्ति. तद् किम् इति अग्रे परिशीलयामः. अस्तु
भगिनि.
अस्तु,
तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं, तस्य अपि किञ्चित् वदतु भगिनि.
नः इति अस्माकम् इति स्थापयतु तत्र.
अस्तु,
तर्हि सिद्धम् अस्माकं समीहितं. समीहितम् इत्युक्ते इष्टम् इति. अस्माभिः यदिष्टं गुणान्तरं पृथक्त्वं, तत् साधितम् इति. अवगच्छति वा मला भगिनी?
तर्हि पृथक्त्वं गुणान्तरम् इत्युक्ते
गुणे अन्यतमः,
पृथक्त्वम्. अस्तु,
अन्तरम् इत्युक्ते अन्ते विद्यमानः. तत्र श्रेणी आसीत् खलु, चतुर्विंशतिगुणानाम् एका श्रेणी, तस्मिन् अन्तर्भूतः गुणान्तरः गुणः पृथक्त्वम् इति. नः इत्युक्ते अस्माकं. तत्र अस्माकम् इत्युक्ते केषाम् इति प्रश्ने कृते पुनः सिद्धान्तीनाम् इति. कः सिद्धान्तिः? प्राचीनाः अस्मिन् सन्दर्भे इति वार्ता. अस्माभिः तु पठितं खलु संयोगस्य आधारेण, यत्र संयोगः कुत्र कुत्र भवति इति परिशील्य, पृथक्त्वम् इति एकः गुणः स्यात् तदा एव संयोगः भवति इति कृत्वा, पृथक्त्वम् इति अन्यतमः गुणः इति साधितम्. तथा अस्ति वार्ता. अस्तु, तर्हि राजेन्द्रमहोदय अग्रे पठति वा अन्य कोऽपि साहाय्यं करोति प्रतिपादनार्थम्?
अनेन पूर्वपक्षिणः आक्षेपः कः? अत्र पूर्वपक्षे गुणरूपस्य पृथक्तस्य नियता अवधिकत्वे मानाभाव इति आशङ्क्यति. घटः पटात् पृथक् इति प्रतीतिः उभायां पक्षाभ्यां साधनीयः एव, यतोहि लोके तादृशव्यवहारः प्रसिद्धः. प्रश्नः अयं यत् इदं विद्यमानं पृथक्त्वं कीदृशं, प्राचीनानां मतं यादृशम् अथवा नव्यानां मतं तादृशम्? एतावता पृथक्त्वं गुणः इति न सिद्धं. के सिद्धाः गुणाः संयोग्यादयः? तेषु सिद्धगुणेषु कस्य नियता अवधिकत्वम् अस्ति, कस्य अपि नास्ति? ये नियता अवधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वं येषां गुणानां नियता अवधिकत्वम् अस्ति, तेषां सर्वेषाम् इयम् आपत्तिः गुणरूपस्य नियता अवधिकत्वे मानाभावः. नियता अवधिकत्वम् इति स्वभावः कस्यापि सिद्धगुणस्य न दृष्टः, कस्य दृष्टः भेदस्य. अतः पृथक्त्वस्य नियता अवधिकत्वात् भेदरूपता एव. तथैव परत्वापरत्वयोः नियता अवधिकत्वापरत्वयोः नियता अवधिकत्वं तयोरपि गुणत्वं नास्ति, अपि तु भेदरूपता. पृथ्वीत्वात् द्रव्यत्वं परं सामान्यम् इति व्यवहारे परत्वस्य भेदरूपता न तु गुणरूपता.
अस्तु, तर्हि किञ्चित् प्रयत्नं करोति वा महोदय अथवा
पूर्वपक्षिणः तेषां मतं किं किं कः अस्ति पूर्वपक्ष गुणरूपस्य पृथक्त्वस्य नियता अवधिकत्वमानाभावः इति आशङ्क्यति पूर्वपक्षिणः वदन्ति पृथक्त्वं नियतावधिकत्वं पृथक्त्वे नियतावधिकत्वम् अस्ति तादृशी तत् एक गुणम् अस्ति तत् न मन्यते पूर्वपक्षिणः न मन्यते शङ्का कुर्वन्ति घटः पटात् पृथक् इति प्रतीति उभाभ्यां पक्षाभ्यां साधनीयः एव यतोहि लोके तादृशव्यवहारः प्रसिद्धः घटः पटात् पृथक् इति प्रतीतिः पक्ष द्वौ पक्षे पूर्वपक्षिणः नवीना सिद्धान्तिनः एव लोके तादृशव्यवहारः प्रसिद्धः अस्ति घटः पथात् पृथक् तत् अङ्गीकुर्वन्ति प्रश्नः अयं यत् इदं विद्यमानं पृथक्त्वं कीदृशं प्राचीनां मतं यादृशम् अथवा नव्यानां मतं तादृशं प्राचीनां मतम् अस्ति पृथक्त्वं तु गुणम् अस्ति परन्तु नव्यानां मतम् अस्ति पृथक्त्वं गुणं गुणः न अस्ति कस्य
इदमपि वदतु प्राचीनानां मतमस्ति पृथक्त्वं गुणः तत्तु समीचीनं प्राचीनाः एव सिद्धान्तिनः अस्मिन् सन्दर्भे पृथक्त्वं गुणः प्राचीनानां मतं किन्तु
नव्यानां मतमस्ति पृथक्त्वं गुणः नास्ति
गुणः नास्ति चेत् किमस्ति नव्यानाम् अनुसारं
तेषां मतमस्ति पृथक् त्वं तु भेद यथा भेदः तादृशी पृथक्त्वम् एव समानः एव अस्ति
अस्तु समीचीनं महोदय
एतावता पृथक्त्वं गुणः न सिद्धं के सिद्धाः गुणः संयोगः विभागः तथा तादृशी गुणाः तु सिद्धगुणाः सन्ति तस्मिन् कस्मिन्नपि सिद्धगुणेषु नियता अवधिकत्वं नास्ति नास्ति कस् नास्ति नियता
एकनिमिषः अत्र किञ्चित् स्थगयामः सिद्धाः गुणाः के संयोगादयः अस्य अर्थः कः
पृथक्त्वं विहाय अन्ये ये गुणाः सन्ति ते सर्वे
संयोगः वियोगः अथवा विभागः इति सर्वं पठितमासीत् खलु
रूपः
रूपं रसगन्ध ते सर्वे गुणाः
सन्ति परन्तु ते तेषु नियत अवधिक्त्वं नास्ति
अस्य अर्थः कः तर्हि
सिद्धगुणेषु
नियतावधिकत्वं नास्ति इत्यस्य अर्थः कः
यथा पृथक्त्वं यदा वदामः घटः पटात् पृथक् तत् नियत अवधिक्त्वम् अस्ति परन्तु सिद्धगुणेषु नियत अवधिक्त्वं नास्ति तत्र
अस्तु संयोगः इति अस्ति खलु अन्य कोऽपि उदाहरणं ददाति वा कोऽपि वदन्ति अस्ति इति भाति
घटपटयो संयोग
विभागः
सरला भगिनी अस्ति
आं भगिनी अपि म्यूट् मा अस्ति अग्रे उदाहरणं घटपटयो संयोगः इति प्रतीति नियतावधिगतं नास्ति तस्य आवश्यकता अपि नास्ति यदि वयं वदामः घटपटावधिक अस्ति तत्र अवधि आरोप्यते तस्य अवगमनार्थं तत्र नियतावधिगतं नास्ति किन्तु पृथक्त्वे प्रतीति भासति घटपटात् पृथक् तत्र अवधिः अस्ति, पट अवधिः भवति, तत्र निरत अवधिः कथं भवति? तत्र संयोग एतत् गुणेषु नियत अवधिः कृतं नास्ति.
अस्तु, तर्हि वाक्यं किम् आसीत् भगिनि तत्र संयोगस्य?
संयोगस्य वाक्यमस्ति घटपटयो संयोग वा घटपटावधिक
घटे पटावधिक संयोगः
संयोगः
इति बुद्धं वा राजेन्द्रमहोदय? अयं मुख्यः अंशः. संयोगस्थले पञ्चमी विभक्तियुक्तं किमपि नास्ति खलु, यथा घटः पटात् पृथक्, घटः पटात् भिन्नः, तत्र पञ्चमीयुक्तम् अस्ति. नाम वाक्ये प्रतीतौ नियमेन अवधिः भासते. वाक्यं श्रुत्वा कस्यचित् मनसि अवधिः कः इति ज्ञानम् उत्पद्यते, परन्तु संयोगः तथा नास्ति. घटपटयोः संयोगः तत्र षष्टी पञ्चमी नास्ति. तर्हि संयोगः कुत्र अस्ति इति प्रश्नः, क्षम्यताम्, अवधिः कः संयोगस्थले इति प्रश्नः उदेति.
इदानीं
संयोगः सावधिकपदार्थः अस्ति वा?
आम् आं भगिनि.
हा, तर्हि अवधिः कथं निर्णीयते यदि न भासते चेत्?
वक्तुं शक्नोति घटपटावधिक घटे पटावधिकसंयोग वा पटे घटावधिकसंयोग.
समीचीनं, आरोपणीयं भवति कुत्रचित्, आरोपणीयं भवति अवधिः इति संयोगः. तथैव
विभागस्थले अपि एतत्.
अस्तु 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 महोदय, तर्हि अग्रे
नियत अवधित्वम् इति अभावः कस्यापि सिद्धगुणस्य न दृष्टः. नियत अवधित्वं सिद्धगुणेषु संयोगदयः ये गुणाः सन्ति तस्मिन् अवधित्वं न दृश्यते. भेदस्थले परन्तु नियत अवधित्वं दृश्यते. अतः पृथक्त्वस्य नियत अवधि भेदरूपता एव तथा वक्तुं शक्नुमः. पृथक्त्वस्य नियत अवधित्वात् भेदरूपता एव अस्ति. पृथक्त्वं भेदरूपम् एव सिद्ध्यति बोधयति.
अस्तु अस्तु अस्तु, इति तु सारांशरूपेण अस्ति, किन्तु मध्ये यदस्ति ये नियतावधिकाः तेषां सर्वेषामेव पूर्व, तत्र किञ्चित् चिन्तनम् अपेक्षितं. तर्हि सभ्यसाची महोदय ततः पठति वा ये नियतावधिकाः?
ये नियतावधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्ध्यत्वं येषां गुणानां नियतावधिकत्वम् अस्ति तेषां सर्वेषाम् इत्यं यम् उत्पत्तिः यम् आपत्तिः यम् आपत्तिः गुणरूपस्य नियतावधिकत्वे मानभावः. तर्हि ये नियतावधिकाः सन्ति तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वम् इत्युक्ते वयं दृष्टवन्तः अत्र एव यत्र नियतावधिकत्वम् अस्ति तत्र इति गुणः कः इति न सिद्धं. यत्र नियतावधिकत्वं नास्ति तत्र गुणः इति तत्र वयं जानीमः गुणः तस्मिन् इति गुणम् अस्ति इति. इत्युक्ते वयं दृष्टवन्तः पृथक्त्वम् इति गुणं नास्ति. किमर्थम् इत्युक्ते तत्र नियतावधिकत्वम् अस्ति. तर्हि प्राचीनानां मतम् अस्ति तत्र पृथक्त्वं गुणं, परन्तु नव्यानां मतं तथा नास्ति. परन्तु संयोगस्थले विभागस्थले तथा नास्ति. संयोगः विभागः तत्र नियतावधिकत्वं नास्ति, परन्तु तत्र संयोगः गुणः अस्ति, विभागः अपि गुणमस्ति. तर्हि ये नियतावधिकाः, यत्र नियत अवधिकत्वम् अस्ति, यत्र प्रतितौ अवधिः भासते, तेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वम् इत्युक्ते येषां गुणानां नियतावधिकत्वम् अस्ति तेषां सर्वेषाम् इयम् आपत्तिः गुणरूपस्य नियतावधिकत्वे मानाभावः. इत्युक्ते यत्र नियतावधिकत्वम् अस्ति तत्र गुणः अस्ति इति ते न स्वीकुर्वन्ति इति अस्ति.
समीचीनं. यः कोऽपि पदार्थः नियतावधिकः, सः पदार्थः गुणत्वेन न स्वीक्रियते अस्माभिः इति पूर्वपक्षिणः मतम्. परन्तु यद्यपि नियतावधिकपदार्थं ते गुणत्वेन न स्वीकुर्वन्ति, तथापि उभाभ्याम् अङ्गीक्रियते यत् घटः पटात् पृथक् इति प्रतीतिः साधुः इति उभाभ्याम् अङ्गीक्रियते. इदं मनसि स्यात् यद् पृथक् इत्यस्य व्यवहारे नियतावधिकत्वम् अस्ति इति उभाभ्याम् अङ्गीक्रियते. परन्तु मतभेदः कुत्र आगच्छति इति चेत् एतावत्पर्यन्तं यत्किमपि अस्माभिः दृष्टं गुणरूपत्वेन तत्र नियतावधिकत्वं नास्ति, पृथक्त्वस्य नियतावधिकत्वम् अस्ति. अतः तस्य गुणत्वेन स्वीकारे अस्माकं मानाभावः अस्ति अथवा अनङ्गीकारः अस्ति.
नियतावधिकत्वम् इति स्वभावः कस्यापि सिद्धगुणस्य न दृष्टः. इत्युक्ते नियतावधिकत्वं यः स्वभावः अस्ति तत्र गुणः अस्ति इति न दृष्टः, सिद्धगुणः इति न दृष्टः. तर्हि इत्युक्ते वयम् इदानीं पृथक्त्वस्थले दृष्टवन्तः. तर्हि कस्य दृष्टः इति प्रश्नः अस्ति. तर्हि भेदस्य इति उत्तरम् अत्र दत्तमस्ति. अतः पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव. इत्युक्ते भेदस्थले अपि तत्र प्रतीतौ अवधिः भासते, इत्युक्ते भेदस्थले अपि नियतावधिकत्वम् अस्ति. तर्हि ते वदन्ति पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव. इत्युक्ते भेदस्थले अपि नियतावधिकत्वम् अस्ति, एवं पृथक्त्वस्थले अपि नियतावधिकत्वम् अस्ति. तर्हि पृथक्त्वस्य नियतावधिकत्वात् इत्युक्ते तत्र तत् नियतावधिकत्वं यत् पृथक्त्वस्थले अस्ति तत् भेदरूप एव. इत्युक्ते भेदरूपे अपि यत् नियतावधिकत्वम् अस्ति पृथक्त्वस्थले अपि तत् अस्ति, तत् समानमेव इति प्रायशः वदन्ति.
यत्र यत्र नियतावधिकत्वम् अस्ति तत्र तत्र भेदः इति पदार्थः अस्ति एव. तर्हि पृथक्त्वस्य पृथक्त्वम् इति अन्यतमः गुणः इति किमर्थं वदनीयम् इति तेषां मतम्.
आवश्यकता नास्ति पृथक्त्वम् इति पदस्य आवश्यकता नास्ति. तथैव परत्वयोः नियतावधिकत्वं तयोरपि गुणत्वं नास्ति अपि तु भेदरूपता एव. तर्हि यत् वयम् इदानीम् उक्तवन्तः इत्युक्ते यत्र नियतावधिकत्वम् अस्ति तत्र गुणं नास्ति, तर्हि पृथक्त्वस्थले अपि भेदस्थले अपि, तर्हि भेदस्थले अपि वयं दृष्टवन्तः इति गुणं नास्ति, तर्हि पृथक्त्वस्थले अपि गुणं नास्ति, पृथक्त्वं भेदरूप एव इति.
हा, इति सत्यं. किन्तु अत्र किं तथैव परत्वापरत्वयोः नियतावधिकत्वं,
हा परत्वापरत्वयोः अहं न जानामि तत्र अर्थं किं भगिनि.
अस्तु, माला भगिनी साहाय्यं दास्यति वा?
परत्व अपरत्व
अग्रिमवाक्यमपि पठतु, प्रायः तदा स्मरति परत्वम् अपरत्वम् इति.
तथैव परत्व अपरत्वयोः नियतावधिकत्वं तयोरपि गुणत्वं नास्ति, अपि तु भेदरूपता एव. परम् अपरम् इति वयं पठितवन्तः.
कस्मिन् सन्दर्भे?
तस्मात् उपरि.
अस्तु, केवलं गृहे अनन्तरं परिशीलयन्तु. सामान्यम् इति यत्र आसीत् विषयः, तस्मिन् तस्य विषयस्य पठनसमये अस्माभिः इदं पठितमासीत्, परम् अपरम् इति. पराजातिः अपराजातिः, यः कोऽपि या कापि जातिः अधिकदेशवृत्तिः सा परा.
न्यूनेषु न्यूनेषु इति अपरा भवति.
हा, न्यूनेषु अस्ति चेत्
घटत्वम् अपरा, पृथ्वीत्वं परा. पृथ्वीतस्य
पृथ्वीत्वं घटस्य अपेक्षया परा.
अस्तु
अस्तु.
तयोरपि तत्रापि गुणः इति न अङ्गीक्रियते, तत्रापि भेदः एव इति वदन्ति. पृथ्वीत्वात् द्रव्यत्वं परं सामान्यम् इति व्यवहारे, पृथ्वीत्वात् द्रव्यत्वं परं, पृथ्वीतः द्रव्यं परम् अस्ति इति व्यवहारे परत्वस्य भेदरूपता न तु गुणरूपता. तस्मिन् वाक्ये अपि परत्व अपरत्वयोः अपि नियतावधिकत्वम् अस्ति, अतः तादृशव्यवहारे पृथ्वीत्वात् द्रव्यत्वं परं सामान्यं तादृशव्यवहारे परत्वम् इति भेदरूपः एव अस्ति, न तु गुणरूपः इति वदन्ति.
समीचीनं. तर्हि परम् अपरं, परम् अपरम् इति जातिविषये परिशीलितवन्तः, अपि च चतुर्विंशतिगुणेषु अपि इदमस्ति परम् अपरम् इति. अन्यतमः गुणः परम् इति, अपरम् इति.
लैक् द्रव्यत्वं भगिनी, नवद्रव्याणि अस्ति, तत् द्रव्यत्वं सर्वेषु द्रव्येषु भवति, पृथ्वीत्वं केवलं पृथ्वी द्रवे भवति. तर्हि पृथ्वी पृथ्वीत्वं पर भवति, द्रव्यम् अपर.
विपरीतं पृथ्वीत्वम् इति अपरं, द्रव्यत्वं परं. द्रव्यत्वम् इति अधिकदेशवृत्तिषु,
अपरं न्यूनेषु.
न्यूनेषु अस्तु. परम् अपरं च गुणः, गुणस्य श्रेण्याम् आगच्छतः परम् अपि च अपरम् इति. तर्हि तयोः अपि नियतावधिकत्वम् अस्ति, नाम द्रव्यत्वं परम् इति वदति चेत् कार्यं न समाप्तं. कस्मात् परम् इति वक्तव्यं भवति, अवधिः का इति सूचनीयः. प्रतीतौ पृथ्वीत्वात् द्रव्यत्वं परम् इति वक्तव्यमेव भवति. पुनः पृथ्वीत्वं परम् इति वदति चेत् कस्मात् इति आगच्छति खलु, यतोहि द्रव्यस्य अपेक्षया पृथ्वी तु अपरं न तु परम्. किन्तु घटत्वात् पृथ्वीत्वं परम् इति उक्त्वा अवधिः सूचनीयः एव प्रतीतौ. अतः परत्व अपरत्वयोः अपि नियतावधिकत्वम् अस्ति इति कृत्वा पृथक्त्वं परम् अपरम् इति यत् ये गुणाः सन्ति ते गुणाः न, अपि तु भेदस्य रूपः एव, रूपम् एव स्वीकुर्वन्ति इति पूर्वपक्षिणः वक्तुमिच्छन्ति. इति स्पष्टं स्यात्? अग्रे सरेम वा?
अग्रे, अतः परत्व अपरत्वयोः विषये अपि तेषां मतभेदः अस्ति.
सत्यं, यत्र यत्र नियतावधिकत्वं भासते तत्र तत्र इति. अस्तु, तर्हि वर्धिनी भगिनी अग्रे पठति वा?
आं भगिनि, यदा यदा नियतावधिकस्य तद्विषयिणी प्रतीतिः जायते, व्यवहारः जायते, तादृशव्यवहारे नियमेन पञ्चम्यन्तं पदम् उपयुज्यते। तेषु सर्वेषु स्थलेषु सः नियतावधिकगुणः मास्तु, तत् स्थाने भेदः अस्तु इति शङ्का अवतरति। अनेन ये गुणाः नियतावधिकाः तेषां सर्वेषाम् इदानीम् असिद्धता इति आपादनार्थमेव एषा पङ्क्तिः। गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावः।
अस्तु भगिनि, एतावत् पर्यन्तं किञ्चित् प्रतिपादनं करोतु।
यदा नियतावधिकस्य तद्विषयिणी प्रतीतिः जायते, यदा नियतावधिकः चिन्तयति, व्यवहारः जायते, तादृशव्यवहारे नियमेन पञ्चमान्तं पदम् उपयुज्यते। तत्सन्दर्भे पञ्चमी विभक्ति उपयुज्यते। तेषु सर्वेषु स्थलेषु सः नियतावधिकगुणः मास्तु, तत् स्थाने भेदः अस्तु इति शङ्का अवतरति। नियतावधिकगुणः तत्स्थाने भेदः अपि अनुमानं भवति।
हा, नाम भेदः इति एव अस्ति, सः एव विषयं वक्तुं, घटः पटात् पृथक् इति विषयं प्रतिपादयितुं घटः पटात् भिन्नः इति प्रतीतिः पर्याप्तं, तत्रापि नियतावधिकत्वं भवति एव,
भेदः एव चिन्तनीयम्।
अतः पृथक्त्वम् इति भेदः एव इति शङ्का अनुमानेन।
अनेन ये गुणाः नियतावधिकाः तेषां सर्वेषाम् इदानीम् असिद्धता इति आपादनार्थमेव एषा पङ्क्तिः। ये गुणाः नियतावधिकाः तेषां सर्वेषाम् इदानीम् असिद्धता इति आपादनम्।
असिद्धता इत्युक्ते गुणत्वेन अनङ्गीकारः, गुणः न इति, तादृश असिद्धता भवति, तादृशी असिद्धता नियतावधिकानां गुणानामेव, यथा पृथक्त्वं, परम्, अपरं, तेषां
गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे माना अभावः। गुणरूपस्य तस्य रूपादिवत्
अस्तु, इदानीं वदतु, गुणरूपस्य तस्य इत्युक्ते कस्य?
गुणरूपस्य
राजेन्द्रमहोदय सहायं करोति वा? गुणरूपस्य तस्य इत्युक्ते कस्य विषये? समीचीनं, पृथक्त्वस्य। गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत्, रूपरसगन्ध इत्यादिवत् मूर्तोत्पत्ति
द्वितीयक्षणे जायमानः,
तत्तु सत्यं, तदपि सत्यं, मूर्तोत्पत्ति द्वितीयक्षणे जायमानः गुणः इति अपि सत्यं, किन्तु नियतावधिकत्वे, नियतावधिकत्वे इति सति सप्तमी अत्र इति चिन्तयामि, यदा तस्य नियतावधिकत्वं भवति तदा मानाभावः इत्युक्ते अनङ्गीकारः, अस्वीकारः, न मन्यन्ते इति। बुद्धः स्यात् एतावत्पर्यन्तं?
प्रत्येकस्मिन्
अग्रे प्रायः सन्ध्या भगिनी पठतु, यतोहि एकमेव परिच्छेदम् अवशिष्टम् अस्ति, सर्वेषां क्रमः भवतु. सन्ध्या भगिनी पठति वा?
आं भगिनि. प्रत्येकस्मिन् नियतावधिकगुणे विवादः अस्ति इति कारणतः युगपत् सर्वेषाम् अनुवादः अत्र भवति. यत्र यत्र गुणक्षेत्रे नियतावधिकत्वम् उच्यते तत्र सर्वत्र पूर्वपक्षी ब्रूयात् मास्तु तस्यापि भेदत्वमेव इष्टम्. अनेन यदि कोऽपि वदति यत् पृथक्त्वस्य च परत्वस्य च नियतावधिकत्वं पूर्वपक्षी उत्तरयति तस्यापि भेदत्वे इष्टापत्तिः. तर्हि यथा पङ्क्तिः अस्ति तेषां